ಗಣಪತಿ ಪೂಜನಂ ಅಥ ಧ್ಯಾನಂ ಗಜಾನನಂ ಭೂತಗಣಾದಿಸೇವಿತಂ ಕಪಿತ್ಥಜಂಬೂಫಲಸಾರಭಕ್ಷಣಂ ಉಮಾಸುತಂ ಶೋಕವಿನಾಶಕಾರಕಂ ನಮಾಮಿ ವಿಘ್ನೇಶ್ವರ ಪಾದಪಂಕಜಂ ಓಂ ಭೂರ್ಭುವಃಸ್ವಃ ಸಿದ್ಧಿಬುದ್ಧಿಸಹಿತಾಯ ಗಣಪತಯೇ ನಮಃ ಧ್ಯಾಯೇ ಧ್ಯಾನಂ ಸಮರ್ಪಯಾಮಿ ಅಥ ಆಸನಂ ಮಹೇಶಪುತ್ರ ಸಮಸ್ತ ವಿಘ್ನೌಘ ವಿನಾಶ ದಕ್ಷ ಮಾಂಗಲ್ಯ ಪೂಜಾ ಪ್ರಥಮ ಪ್ರಧಾನ ಗೃಹಾಣ ಪೂಜಾ ಭಗವನ್ ನಮಸ್ತೆ ಓಂ ಭೂರ್ಭುವಃಸ್ವಃ ಸಿದ್ಧಿಬುದ್ಧಿಸಹಿತಾಯ ಗಣಪತಯೇ ನಮಃ ಆಸನಂ ಸಮರ್ಪಯಾಮಿ ಅಪಾದ್ಯಂ ಅರ್ಘ್ಯಂ ಆಚಮನೀಯಂ ಸ್ನಾನಂ ಚ ಓಂ ದೇವಸ್ಯ ತ್ವಾ ಸವಿತುಃ ಪ್ರಸವೇ ಸಮರ್ಪಯಾಮಿ ಓಂ ಗಣಗಣಪತಯೇ ನಮಃ ಅರ್ಘ್ಯಂ ಸಮರ್ಪಯಾಮಿ ಓಂ ಗಣಗಣಪತಯೇ ನಮಃ ಆಚಮನೀಯಂ ಸಮರ್ಪಯಾಮಿ ನಮಃ ಸ್ನಾನಂ ಸಮರ್ಪಯಾಮಿ ಅಥ ಪಯಸ್ನಾನಂ ಓಂ ಆಪ್ಯಾಯ ಸ್ವಸಮೇತು ತೇ ವಿಶ್ವತಃ ಸೋಮವೃಷ್ಣ್ಯಂ ಭವಾವಾಜಸ್ಯ ಸಂಗತೇ ಕಾಮಧೇನು ಸಮುದ್ಭೂತಂ ಸರ್ವೇಷಾಂ ಜೀವನಂ ಪರಂ ಪಾವನಯಜ್ಞ ಹೇತುಶ್ಚ ಪಯಸ್ನಾನಾರ್ಥಮರ್ಪಿತಂ ಓಂ ಭೂರ್ಭುವಃಸ್ವಃ ಸಿದ್ಧಿಬುದ್ಧಿಸಹಿತಾಯ ಗಣಪತಯೇ ನಮಃ ಪಯಸ್ನಾನಂ ಸಮರ್ಪಯಾಮಿ ಅಥ ದಧಿಸ್ನಾನಂ ಓಂ ದಧಿಕ್ರಾವ್ಣೋ ಅಗಾರಿಷಂ ಜಿಷ್ಣೋರಶ್ವಸ್ಯ ಭಾಜಿನಃ ಸುರಭಿನೋ ಮುಖಾಕರತ್ ಪ್ರಣ ಆಯೋಂಷಿತಾರಿಷತ್ ಪಯಸಸ್ತು ಸಮುದ್ಭೂತಂ ಮಧುರಾಮ್ಲಂ ಶಶಿಪ್ರಭಂ ದಧ್ಯಾನೀತಂ ಮಯಾ ದೇವಸ್ನಾನಾರ್ಥಂ ಪ್ರತಿಗೃಹ್ಯತಾಂ ಓಂ ಭೂರ್ಭುವಃಸ್ವಃ ಸಿದ್ಧಿಬುದ್ಧಿಸಹಿತಾಯ ಗಣಪತಯೇ ನಮಃ ದಧಿಸ್ನಾನಂ ಸಮರ್ಪಯಾಮಿ ಅಥ ಘೃತಸ್ನಾನಂ ಓಂ ಘೃತಂ ಮಿಮಿಕ್ಷೇ ಘೃತಮಸ್ಯ ಯೋ ನಿರ್ಘೃತೇ ಶ್ರಿತೋ ఘృతం వస్య ధామ అనశ్వథమావహమాదయస్వ స్వాహాకృతం వృషభవక్షి హవ్యం నవనీత సముత్పన్నం సర్వసంతోషకారకం ఘృతం దుభ్యం ప్రదాస్యామి స్నానార్థం ప్రతిగృహ్యతాం ఓం భూర్భువస్వః సిద్ధి బుద్ధి సహితాయ గణపతయే నమః ఘృతస్నానం సమర్పయామి అథ మధుస్నానం ఓం మధువాతారతాయతే మధుక్షరంతి సింధవః మాధ్వీర్నః సన్పోషధీః మధునక్తముదోషసో మధుమత్పాక్షిభమ్రజాః మధుద్యౌరస్తు నః పితా పుష్పరేణు సముద్భూతం సుస్వాదు మధురం మధు తేజః పుష్టికరం దివ్యం స్నానార్థం ప్రతిగృహ్యతాం ఓం భూర్భువస్వః సిద్ధి బుద్ధి సహితాయ గణపతయే నమః మధుస్నానం సమర్పయామి అథ శర్కరా స్నానం ఓం స్వాదుః పవస్వ దివ్యాయ జన్మనే స్వాదురింద్రాయ సుహవీతునామ్నే స్వాదుర్మిత్రాయ వరుణాయ వాయవే బృహస్పతయే మధుమాంగరాభ్రః ఇక్షుసారసముద్భూతాం శర్కరాం పుష్టిదాం శుభాం మలాపహారికాం దివ్యాం స్నానార్థం ప్రతిగృహ్యతాం భూర్భువస్వః సిద్ధి బుద్ధి సహితాయ గణపతయే నమః శర్కరా స్నానం సమర్పయామి అథ గంధోదక స్నానం ఓం గంధద్వారాందురాధర్షాన్ నిత్యపుష్టాంగరీషిణీం ఈశ్వరీం సర్వభూతానాం తామిహోపహ్వయే శ్రియం ఓం భూర్భువస్వః సిద్ధి బుద్ధి సహితాయ గణపతయే నమః గంధోదక స్నానం సమర్పయామి అథ శుద్ధోదక స్నానం ఓం ఏతోన్వింద్రం స్తవామశుద్ధం శుద్ధేన సాంనా శుద్ధైరుక్తైర్వా వృద్ధ్వాంసం శుద్ధాశీర్వాన్మమత్తో ఓం భూర్భువస్వః సిద్ధి బుద్ధి సహితాయ గణపతయే నమః శుద్ధోదక స్నానం సమర్పయామి అథ వస్త్రం ఓం యువా సువాసాః పరివీత ఆగాత్ స ఉశ్రేయాన్ భవతి జాయమానః తంధీరా సః కవయ ఉన్నయంతి స్వాధ్యో सा देवयन्ताः ॐ भूर्भुवस्वः सिद्धिबुद्धिसहिताय गणपतये नमः वस्त्रं समर्पयामि अथ यज्ञोपवीतम् ॐ यज्ञोपवीतम् परमम् पवित्रम् प्रजापतेर्यत्सहजम् पुरस्ताद् आयुष्यमद्र्यम् प्रतिमुञ्च शुभ्रम् यज्ञोपवीतम् बलमस्तु तेजः ॐ भूर्भुवस्वः सिद्धिबुद्धिसहिताय गणपतये नमः यज्ञोपवीतम् समर्पयामि यज्ञोपवीतान्ते आशमनीयम् समर्पयामि अथ चन्दनम् ॐ श्रीखण्डम् चन्दनम् दिव्यम् गन्धाढ्यम् सुमनोहरम् विलेपनम् सुरश्रेष्ठचन्दनम् प्रतिगृह्यताम् ॐ भूर्भुवस्वः सिद्धिबुद्धिसहिताय गणपतये नमः चन्दनम् समर्पयामि अथ अक्षतम् ॐ अक्षन्नमे मदन्तह्यवप्रिया अधोषत अस्तोषतस्वभा नभो विप्रानविष्ठयामतीयोजान्विन्द्रते हरि ॐ भूर्भुवस्वः सिद्धिबुद्धिसहिताय गणपतये नमः अक्षतान् समर्पयामि अथ पुष्पम् ॐ ओषधेः प्रतिमोदध्वम् पुष्पवतेः प्रसूवरेः अश्वा इव सजित्वरेर्विरुधः पालयिष्वाः ॐ भूर्भुवस्वः सिद्धिबुद्धिसहिताय गणपतये नमः पुष्पम् समर्पयामि अथ दूर्वा ॐ काण्डात् काण्डात् परोहन्ति परुषः परुषस्परि एवानो दूर्वे प्रतनु सहस्रेण शतेन च ॐ भूर्भुवस्वः सिद्धिबुद्धिसहिताय गणपतये नमः दूर्वाङ्कुरान् समर्पयामि अथ सौभाग्यद्रव्यम् ॐ अहिरिव भोगैः पर्येति बाहुञ्जाया हेतिम् परिबाधमानः हस्तघ्नो विश्वाभयुनानि विद्वान् पुमान् पुमान् सम्परिपातु विश्वताः अलीरम् च गुलालम् च हरिद्रादिसमन्वितम् नानापरिमलम् द्रव्यम् ग्रहाण परमेश्वर ॐ भूर्भुवस्वः सिद्धिबुद्धिसहिताय गणपतये नमः नानापरिमलद्रव्याणि समर्पयामि अथ धूपः। ॐ येष्वाहि प्रदेव्या अय्यजस्व जातवेदसम् चरिष्णुधो मम गृभेदशोचिषम् वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय गणपतये नमः धूपमाघ्रापयामि अथ दीपम् ॐ अग्निर्ज्योतिर्ज्योतिरग्निस्वाहा सूर्योज्योतिर्ज्योतिःसूर्यस्वाहा अग्निर्वर्चोज्योतिर्वर्चस्वाहा सूर्यो वर्चोज्योतिर्वर्चस्वाहा ज्योतिःसूर्यस्सूर्योज्योतिःस्वाहा ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय गणपतये नमः दीपं दर्शयामि हस्तप्रक्षालनम् अथ नैवेद्यम् ॐ नाभ्या आसीदन्तरिक्षम् शीर्ष्णाद्यौः समवर्तत पद्भ्याम् भूमिर्दिशश्रोत्रात्तथा लोकाम् अकल्पयन् शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च आहारम् भक्ष्य भोज्यम् च नैवेद्यम् प्रतिगृह्यताम् ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय गणपतये नमः नैवेद्यम् निवेदयामि ॐ प्राणाय स्वाहा ॐ अपानाय स्वाहा ॐ ज्ञानाय स्वाहा स्वाहा ॐ समानाय स्वाहा मध्ये आशमनीयम् समर्पयामि पुनश्च ॐ प्राणाय स्वाहा ॐ अपानाय स्वाहा उत्तरापोषणम् समर्पयामि हस्तप्रक्षालनम् समर्पयामि मुखे आचमनीयम् समर्पयामि अथ ऋतुफलम् ॐ या फलिनीर्या अफला अपुष्पायाश्च पुष्पिणीः बृहस्पतिप्रसूतास्तानो मुञ्चन् ब्रह्मसः ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय गणपतये नमः ऋतुफलानि समर्पयामि अथ ताम्बूलम् पूगीफलम् महद्दिव्यम् नागवल्लीदलैर्युतम् एलादिचूर्ण संयुक्तं ताम्बूलं प्रतिगृह्यताम् ॐ भूर्भुवस्वः सिद्धिबुद्धिसहिताय गणपतये नमः ताम्बूलं समर्पयामि अथ दक्षिणा ॐ हिरण्यगर्भगर्भस्थं हेमबीजं विभावसो अनन्तपुण्यफलधमतः शान्तिं प्रयच्छ मे ॐ भूर्भुवस्वः सिद्धिबुद्धिसहिताय गणपतये नमः दक्षिणां समर्पयामि अथ नीराजनम् ॐ विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात् सम्बाहुभ्यां नमति सम्बतत्रैर्द्यावा भूमि जनयन् देव एकाः ॐ आरात्रिपार्थिवं रजः पितरः प्रायुधामभिः दिवः सदांसि बृहति वितिष्ठ स आत्वेषं वर्तते तमाः ॐ भूर्भुवस्वः सिद्धिबुद्धिसहिताय गणपतये नमः आरात्रिकं समर्पयामि अथ पुष्पाञ्जलिः ॐ गणानां त्वा गणपातिग्गहवामहे प्रियाणां त्वा प्रियपातिग्गहवामहे निधीनां त्वा निधिपतिग्गहवामहे वसो मम आहमाजानि गर्भधमा त्वमाजासि गर्भधम् ॐ भूर्भुवस्वः सिद्धिबुद्धिसहिताय गणपतये नमः पुष्पाञ्जलिं समर्पयामि अथ प्रार्थना विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय नागाननाय श्रीयज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ॐ भूर्भुवस्वः सिद्धिबुद्धिसहिताय गणपतये नमः प्रार्थनापूर्वकम् नमस्कारान् समर्पयामि विघ्नहर्ता गणपति महाराज की जय।